Now let us do the entire Shiva Sankalpa Sukta. That means all 6 mantras. First, I will repeat one word at a time, give you enough time so that you can pronounce properly and repeat the words. And then I will repeat the whole mantra at slow pace. And finally, I will do the whole Shiva Sankalpa Sukta at a proper pace. Let us begin. Yajagrato Dura Mudaiti Daivam Tadu Suptasya Tathaivaiti Durangamam Jyotisham Jyotirekam Tanme Manah Shiva Sankalpa Mastu Now let's do the second time. Yajagrato Dura Mudaiti Daivam Tadu Suptasya Tathaivaiti Durangamam Jyotisham Jyotirekam Tanme Manah Shiva Sankalpa Mastu. Again. Yajagrato Dura Mudaiti Daivam Tadu Suptasya Tathaivaiti Durangamam Jyotisham Jyotirekam Tanme Manah Shiva Sankalpa Mastu. Now Mantra 2. Yena Karmanyapaso Manishino Yagye Krunvanti Vidatheshu Dhiraha Yadapurvam Yakshamantaha Prajanam Tanme Manah Shiva Sankalpa Mastu. Again. Yena Karmanyapaso Manishino यज्ञे कृण्वन्ति विदथेषु धीराः यदपूर्वं यक्ष्मन्तः प्रजानां तन्मे मनः शिवसंकल्पमस्तु। वन्स अगेन, येन कर्माण्यपसो मनीषिणो यज्ञे कृण्वन्ति विदथेषु धीराः यदपूर्वं यक्ष्मन्तः प्रजानां तन्मे मनः शिवसंकल्पमस्तु। नाउ मंत्र नंबर 3। यत प्रज्ञानमुत चेतो धृतिश्च यज्ज्योतिरन्तः अमृतम् प्रजासु यस्मान्न ऋते किञ्चन कर्म क्रियते तन्मे मनः शिवसंकल्पमस्तु Now the whole thing together. Yat pragyanamut cheto dhritischa yat jyotirantaha amritam prajasu yasman nariti kinchan karma kriyate tanme manaha शिव संकल्पमस्तु। अगेन, यत प्रज्ञानमुत चेतो धृतिश्च यज्ज्योतिरन्तः अमृतं प्रजासु यस्मान्न ऋते किञ्चन कर्म क्रियते तन्मे मनः शिवसंकल्पमस्तु। नाउ मंत्र नंबर 4। एनेदम् भूतम् भुवनम् भविष्यत् परिगृहीतम् अमृतेन सर्वं येन यज्ञस्तायते सप्त सप्त होता होता तन मे मनः तन मे मनः शिव संकल्प मस्तु शिव संकल्प मस्तु नाउ इट इज स्लाइटली फास्टर पेस ए नेदम भूतम भुवनम भविष्यत परिगृहीतम अमृतेन सर्वम एन यज्ञस्तायते सप्त होता तन्मे मनः शिव संकल्प मस्तु अगेन एनेदं भूतं भुवनं भविष्यत् परिगृहीतम् अमृतेन सर्वम् येन यज्ञस्तायते सप्त होता तन्मे मनः शिव संकल्पमस्तु नाउ मंत्र नंबर फाइव यस्मिन् ऋचः यस्मिन् ऋचः साम यजुंषि साम यजुंषि यस्मिन् यस्मिन् प्रतिष्ठिता प्रतिष्ठिता रथनाभाविवाराः रथनाभाविवाराः यस्मिंश्चित्तम् यस्मिंश्चित्तम् सर्वमोतम् सर्वमोतम् प्रजानाम् प्रजानाम् तन्मे मनः तन्मे मनः शिवसंकल्पमस्तु शिवसंकल्पमस्तु Now, with slighter, faster speed. Yasmin richah sam yajunshi yasmin pratishthita ratnabha vivarah yasmish chittam sarvamotam prajanam तन्मे मनः शिव संकल्पमस्तु अगेन यस्मिन् ऋचः साम यजुंषि यस्मिन् प्रतिष्ठिता रथनाभा विवाराः यस्मिंश्चित्तं सर्वमोतं प्रजानाम् तन्मे मनः शिव संकल्पमस्तु नाउ मंत्र नंबर सिक्स द लास्ट वन सुसारथी Rashwaniva. Rashwaniva. So it's a big word, let's put together. Susharati Rashwaniva. Susharati Rashwaniva. Once again, Susharati Rashwaniva. Again, Susharati Rashwaniva. Susharati Rashwaniva. Again, Susharati Rashwaniva. Susharati Rashwaniva. Next word. Yan Manusyan. Yan Manusyan. Ne Niyatevhi. Ne Niyatevhi. Subhir Vajina. Subhir Vajina. This is also very word, very long word. Ne Niyatevhi Subhir. Let's put this much. Ne Niyatevhi Subhir. Ne Niyatevhi Subhir. Ne Niyatevhi Subhir. Ne Niyatevhi Subhir. Again, Ne Niyatevhi Subhir. Vajina. Vajina. Ne Niyatevhi Subhir Vajina. Ne Niyatevhi Subhir Vajina. Eva. Eva. Ne Niyatevhi Subhir Vajina Eva. Ne Niyatevhi Subhir Vajina Eva. Hrita Pratishtam. Hrita Pratishtam. Yadajiram. Yadajiram. Javistham. Javistham. Tanmi manaha. Tanmi manaha. Shiva sankalpa mastu. Shiva sankalpa mastu. Now let us do it slightly at a faster pace. Susharati rasvan niva yan manusyan ne niyatevhi subhir vajina eva hrita pratishtham yadajiram javistham tanmi manah shiva sankalpa mastu. Once again, susharthi rasvan yuyan manusyan ne niyatevhi subhir vajina eva hrita pratishtham yadajiram javistham tanme manah shiva sankalpa mastu. Now let us do all six mantras at a proper pace. Yajagrato dura mudaiti daivam tadu suptasya tathaivaiti durangamam jyotisham jyotirekam tanme mana shiva sankalpa mastu. Ena karmaṇyapaso manishino यज्ञी कृण्वन्ति विदधि सुधीराः यदपूर्वं यक्षमन्तः प्रजानां तन्मे मनः शिवसंकल्पमस्तु यत्प्रज्ञानमुत चेतो धृतिश्च यज्ज्योतिरन्तः अमृतं प्रजासु यस्मान् रीते किञ्चन कर्म क्रियते तन्मे मनः शिव संकल्पमस्तु येनेदं भूतं भुवनं भविष्यत् परिगृहीतम् अमृतेन सर्वं येन यज्ञस्तायते सप्त होता तन्मे मनः शिव संकल्पमस्तु यस्मिन् ऋचः साम यजुंषि यस्मिन् प्रतिष्ठितारथ नाभाविवाराः यस्मिश्चित्तं सर्वमूतं प्रजानां तन्मे मनः शिव संकल्पमस्तु सुषार्थिरश्वान् युयन् मनुष्यान् नेनीयतीभिः सुभिर्वाजिनैव हृतप्रतिष्ठं यदजिरं जविष्ठं तन्मे मनः शिव संकल्पमस्तु अगेन यज्जाग्रतो दूरमुदैति दैवं तदुसुप्तस्य तथैवैति दूरङ्गमं ज्योतिषां ज्योतिरेकं तन्मे मनः शिव संकल्पमस्तु येन कर्माण्यपसो मनीषिणो यज्ञी कृण्वन्ति विदधि सुधीराः यदपूर्वं यक्षमन्तः प्रजानां तन्मे मनः शिव संकल्पमस्तु यत्प्रज्ञानमुत चेतो धृतिश्च यज्ज्योतिरन्तः अमृतं प्रजासु यस्मान् रीते किञ्चन कर्म क्रियते तन्मे मनः शिव संकल्पमस्तु येनेदं भूतं भुवनं भविष्यत् परिगृहीतम् अमृतेन सर्वं येन यज्ञस्तायते सप्त होता तन्मे मनः शिव संकल्पमस्तु यस्मिन् ऋचः साम यजुंषि यस्मिन् प्रतिष्ठितारथ नाभाविवाराः यस्मिश्चित्तं सर्वमूतं प्रजानां तन्मे मनः शिव संकल्पमस्तु सुषार्थिरश्वान् युवयन् मनुष्यान् नेनीयतीभिः सुभिर्वाजिनैव हृतप्रतिष्ठं यदजिरं जविष्ठं तन्मे मनः शिव संकल्पमस्तु वन्स अगेन् यज्जाग्रतो दूरमुदैति दैवं तदुसुप्तस्य तथैवैति दूरङ्गमं ज्योतिषां ज्योतिरेकं तन्मे मनः शिव संकल्पमस्तु येन कर्माण्यपसो मनीषिणो यज्ञे कृण्वन्ति विदधि सुधीराः यदपूर्वं यक्षमन्तः प्रजानां तन्मे मनः शिव संकल्पमस्तु यत्प्रज्ञानमुत चेतो धृतिश्च यज्ज्योतिरन्तः अमृतं प्रजासु यस्मान् रीते किञ्चन कर्म क्रियते तन्मे मनः शिव संकल्पमस्तु येनेदं भूतं भुवनं भविष्यत् परिगृहीतम् अमृतेन सर्वं येन यज्ञस्तायते सप्त होता तन्मे मनः शिव संकल्पमस्तु यस्मिन् ऋचः साम यजुंषि यस्मिन् प्रतिष्ठितारथ नाभाविवाराः यस्मिश्चित्तं सर्वमूतं प्रजानां तन्मे मनः शिव संकल्पमस्तु सुषार्थिरश्वान् युयन् मनुष्यान् Niniyati bhisu bhiravajinaiva hrta pratishtam yadyajiram javishtam tanmi manahasiva sankalpamastu om shantihi shantihi shantihi.